हरि ओम सर्वेभ्यः नमस्काराः येनाक्षरसमं नान्यम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं तद्रुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य तदुक्तिः परिभाव्य च वैयाकरणसिद्धान्तकौमुदीयं विरच्यते। गतकक्षायाः विषयः किञ्चित् सवर्णसंज्ञाप्रकरणे स्मः। सवर्णसंज्ञा विधीयते तुल्यास्य प्रयत्नं सवर्णम् इति सूत्रेण, तथैव द्विजवर्णयोः मिथः सावर्ण्यं वाच्यम् इति वाच्यकेन च, तथा विहितस्य तुल्यास्य प्रयत्नं सवर्णम् इति विहितस्य विहितायाः सवर्णसंज्ञायाः निषेधः क्रियते नाज्झलौ इति सूत्रेण। अच् हलौ स्वराः व्यञ्जनानि च परस्परं सवर्णसंज्ञाः न स्युः, तथैव आकारस्य हल्भिः सह सावर्ण्यं नास्ति इति निषिध्यते नाज्झलौ इति सूत्रेण। एवं सवर्णसंज्ञायां ज्ञातायाम् अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रेण अविधीयमानः अण् उदित् च सवर्णस्य संज्ञा स्यात्, सवर्णस्य ग्राहकत्वं विधीयते। यः अण् अविधीयमानः भवति सः सर्वर्णानामपि ग्रहणं करोति, अर्थात् अ इति युक्ते अष्टादश अकाराणामपि ग्रहणम्, इ इत्युक्ते अष्टादश इकाराणां ग्रहणम् इत्यादिरीत्या ज्ञातं सवर्णग्रहणम्। किन्तु इदानीं कश्चन प्रश्नः उदेति, अविधीयमानः अण् सवर्णान् गृह्णाति इत्युक्ते केषुचित् प्रदेशेषु दोषः जायते, यथा अतो भिस ऐस् इति एकं सूत्रमस्ति, अतः भिसः ऐस् अकारान्तात् प्रातिपदिकापरस्य भिस् प्रत्ययस्य ऐस् इति आदेशः क्रियते, यथा राम इति प्रातिपदिकात् भिस् प्रत्यये पदे भिस् प्रत्ययस्य ऐस् आदेशे कृते वृद्धौ रामैः इति रूपं जायते, सर्वत्र रामैः कृष्णैः गजैः इत्यादिरीत्या यत्र अकारान्तं भवति प्रातिपदिकं तत्र भिसः ऐसादेशः क्रियते। इदानीं यथा अस्माभिः पूर्वं ज्ञातं स इत्युक्ते सर्वेषाम् अकाराणां ग्रहणं भवति, तथैव अत्रापि अकारान्तादित्युक्ते दीर्घ अकारान्तात् प्रातिपदिकादपि ऐसादेशः विश्वस्य ऐसादेशः भवति वा इति प्रश्नः, तथा विश्वपा इति आकारान्तं प्रातिपदिकम् अस्ति, तस्मात् तस्य भिसः ऐसादेशः भवति वा, यदि भवेत् तर्हि विश्वपैः इति किमपि स्यात्, किन्तु रूपं दृश्यते विश्वपाभिः इत्येव, ऐसादेशः न भवति अकारान्तस्य उक्तेपि, अत्र अकारः न विधीयमानः, अनेन सूत्रेण भिस् प्रत्ययस्य ऐस् आदेशः विधीयते, ऐस् विधीयमानः न तु अकारः, तस्मात् अनुदित् सवर्णस्य च प्रत्ययः इति सूत्रेण यदि अत्रापि सवर्णानां ग्रहणं स्यात् तर्हि आकारान्तात् प्रातिपदिकतापि प्रत्ययस्य ऐतादेशः स्यात् इति आपत्तिः। प्रोब्लम् इस् वि डिफैन् दट् एनि अण् विच् इस् नाट् विधीयमान विल् कलेक्ट् इट्स् सवर्णात्, वेन् नीते अकसवर्णे दीर्घः वि डू इट् बोत् फार् दैत्य अरिः ह्रस्वाकार अण्ड् आल्सो फार् अ दीर्घ अकार अग्रि विद्या आलयः विद्यालयः। इफ् वि अप्लै दिस् एव्रिवेर् देर् आर् सम् प्राब्लम्स्, for example there is a sutra called atobhisai which tells you that if a pratipadika is akaranta and if it is if a pratipadika is akaranta the bhis pratyaya which is following that pratipadika will get an adesha called ais, so rama bhihi becomes rama ais ramaihi is the roopa which we get using this sutra, but if we use anudit savarnasya ta pratyaya here also, then even when the bhis is in front of a dirgha akara, then also you will have to do ais aresha, but it is seen that it is not the case. If it is dirgha akara, you do not get ais aresha. So how do we prevent this? As long as we are saying anudit savarnasya ta pratyaya, the ais aresha will be applicable even for a dirgha akara. similarly you have a sutra called Ruto Ni Sarvanamasthana. It says the Ni and Sarvanamasthana. There are a few pratyayas which are following a Rukaranta Pratipadika. Will get guna. That is what the sutra tells. Rukarantasya Pratipadikasya Gunaha Vidhiyam. Dirgha Rukarantasya Apirbhavativa. Iti Prashnaha. ह्रस्वकारान्तस्य गुणः विहितः सः दीर्घस्यापि भवति वा यदि अनुदित् सवर्णस्य चाप्रत्ययः इति स्वीक्रियते तर्हि दीर्घकारान्तस्यापि स्यात् किन्तु न भवति अतोभिस इति सूत्रं दीर्घ आकारात् परस्य भितः न भवति ऋतोनि सर्वनामस्थानयोः इति विहितः गुणः दीर्घऋकारान्तात् परस्य दीर्घऋकारान्तस्य प्रातिपदिकस्य न भवति कथं न भवति इति चेत् पुनः एकं सूत्रमस्ति सवर्णग्राहकसूत्रस्य नियोगः अयं नियोगः तपरस्तत्कालस्य पदद्वयमस्ति तपरः तत्कालस्य इति छेदः तत्र तपरः इति पदं द्विवारम् आवर्त्यते तपरः तपरः इति यतोहि द्वेधा विग्रहः प्रदर्श्यते तपरः तत्कालस्य पूर्वसूत्रात् अणुदित्सवर्णस्य च प्रत्ययः इति सूत्रात् अण् इति अनुवर्तते अण् तपरः तत्कालस्य यः कोऽपि अण् तपरः भवति चेत् तत्कालस्यैव ग्राहकः भवति इति सूत्रार्थः कः अर्थः तपरः इत्युक्ते कः इति चेत् सः परः यस्मात् सः तात् परश्च इति तपरः तपर इति शब्दस्य द्वेधा विग्रहः क्रियते प्रथमविग्रहे कः परः यस्मात् सः यस्मात् यस्मात् वर्णात् तकारः परः दट् वर्ण विच् इस् फालोड् बै अतकार इस् तपर ओके इन् द अदर् विग्रह तात् परः तकारात् परः दट् वर्ण विच् फालोस् अतकार सो बेसिकलि यु गेट् बोत् वर्ण विच् इस् प्रिसीडिङ्ग् अतकार एण्ड् फालोयिङ्ग् अतकार बोत् आफ् दीस् केन् बि काल्ड् तपर One of them is a Tatpurusha Samasa and the other is a Bhuvihi. You get both a letter which is preceding Takara and a letter which is following Takara. That is called Tapara. So if an is Tapara, means if one of those words, if a is either followed by tu or is preceded by tu, tat kalasya. Tat nama yaha uchariyate saha. If a is being pronounced, that is called tat. Uchariyamana. समकालस्यैव संज्ञा स्यात् यस्मिन् काले सः वर्णः उच्चार्यते तत्कालस्यैव ग्राहकः भवति अर्थात् इदानीं ह्रस्वकारः उच्चार्यते अत् अतोभिस्त ऐसिगत किम् अस्ति अतः इत्यस्ति अत् तः परः यस्मात् सः तपरः अकारः अकारात् परत्वेन तकारः विद्यते अत् इति तत्र च ह्रस्वकारः उच्चार्यते तस्मात् तपतः यस्मादकारात् तकारः परे अस्ति सः अकारः उच्चार्यमाणसमकालस्यैव यस्मिन् काले उच्चार्यते अर्थात् अतः ह्रस्व अकारः उच्चार्यते तस्मात् ह्रस्वस्यैव अकारस्य ह्रस्वाणामेव अकाराणां ग्राहकः भवति इति सूत्रार्थः अत् इत्युक्ते ह्रस्व अकाराः ह्रस्व अकारस्य कति प्रभेदाः इति चेत् षट् प्रभेदाः भवन्ति उदात्त अनुदात्तस्वरिताः पुनः अनुनासिक अननुनासिक इति ह्रस्वाकारस्य ये षट् प्रभेदाः सन्ति तेषामेव ग्रहणं भवति परस्तत्कालस्य इति सूत्रेण यस्मात् वर्णात् तकारः परे अस्ति अथवा यः वर्णः तकारात् परतः अस्ति सः वर्णः केवलं समकालवर्णानेव गृह्णाति अनुदित्सवर्णस्य च प्रत्ययः इति सूत्रेण किमुक्तम् सर्वेषां सवर्णानां ग्रहणं भवति इति उक्तम् इदं सूत्रं नियमसूत्रम् अणुदित्सवर्णस्य च प्रत्ययः इति सूत्रेण सर्वेषां सवर्णानां ग्रहणे प्राप्ते इदं सूत्रं नियामयति किमिति तत्कालानामेव ग्रहणं भवति इति दिस् सूत्र इस् काल्ड् नियमसूत्रम् वैयुद्धस्य नियमसूत्रम् इफ् वि जस्ट् से अ Anudit Savarnasya Chapratyaha will tell you that we can collect 18 all Savarnas of Akara with it. But this sutra tells you if a Takara happens to be followed by a Takara, then you will collect only the six parts. Whatever is of the same kala. Kala is either Rasva, Dirgha or Shruta. So you will collect only that kala and you will not collect all the savarnas. From all savarnas, you are limiting the grahana to only tat kala. That is why this is a Niyama Sutra. Tat kala means uchariyaha uchariyate tasya kala sadrishaha kalaha yesham tesham eva varnanam grahanam bhavati. अतः अतोभिस ऐसिति अत् इति तपरः इदमेव तपरकरणम् इत्युच्यते तपरकरणात् अ इति ह्रस्वाकारस्यैव ग्रहणम् दीर्घ अकारस्य ग्रहणम् न भवति एवमेव अत्रापि ऋतो निसर्वनामस्थानयोः इत्युक्ते ऋत् इति तपरकरणत्वात् ऋ इत्यनेन ह्रस्वऋकारस्यैव ग्रहणं भवति दीर्घऋकारस्य अथवा प्लुतऋकारस्य ग्रहणं न भवति इति तपरस्तत्कालस्य इति सूत्रस्य अर्थः तद्वयं वर्तते तपरः तपरः किमर्थं द्विवारम् एकवारं तः परः यस्मात् सः यस्मात् वर्णात् तकारः परे अस्ति सः परः पुनश्च तपरः इत्युक्ते तात् परः तकारात् परः तपरः तः परः यस्मात् सः तात् परश्च उच्चार्यमाणसमकालस्यैव संज्ञा स्यात् इति सूत्रार्थः नियमसूत्रम् अनुदित्सवर्णस्य च प्रत्ययः इति सूत्रेण सर्वेषां सवर्णानां ग्रहणे प्राप्ते अनेन सूत्रेण नियम्यते किमिति यदि स एव अण्तपरः भवति तर्हि तत्कालानां सवर्णानामेव ग्रहणं करोति न तु सर्वेषां सवर्णानां तेन अत् इत् इत्यादयः षण्णां षण्णां संज्ञाः इदानीं पूर्वत् किमुक्तं तदेवम् अ इति अष्टादशानां संज्ञा इत्युक्तं केवलम् अ इति उच्यते चेत् अष्टादशप्रभेदानां ग्रहणं भवति अत् इति तकारेण सह उच्चार्यते चेत् षण्णां ग्रहणं ह्रस्व उदात्त अनुनासिका ह्रस्व उदात्त अननुनासिका ह्रस्व अनुदात्त अनुनासिका ह्रस्व अनुदात्त अननुनासिका ह्रस्व स्वरित अनुनासिका ह्रस्व स्वरित अननुनासिका इति ये षट् प्रभेदाः ह्रस्वस्य ये षट् प्रभेदाः तेषामेव ग्रहणं भवति अत् एव अत्रैव अस्ति एतेषां षण्णां भेदानां ग्रहणं भवति एवम् इत् इत्युक्ते षट् इकाराः उत् इत्युक्ते षट् ह्रस्व उकाराः ऋत् इत्युक्ते किम् इति चेत् द्वादशानां न केवलं ऋकारस्य ऋलुवर्णयोः मिथस्सावर्ण्यं वाच्यम् इति उक्तं तस्मात् ह्रस्वऋकारस्य ये षट् प्रभेदाः तथैव ह्रस्व ऋकारस्य षट् प्रभेदाः आहत्य द्वादशानां ग्रहणं भवति ऋतो ऋतः इत्युक्ते द्वादशानां ग्रहणम् इति तपरस्तत्कालस्य इति सूत्रम् अत्र अपरः इत्यस्य द्वेधा विग्रहः प्रदर्शितः तः परः यस्मात् सः तात् परश्च तः परः यस्मात् सः इत्यस्य उदाहरणं प्रदर्शितम् अत् इत् उत् ऋत् सर्वत्र सः यस्मात् परः सः इति तात्परः इत्यस्य किम् उदाहरणम् इति चेत् वृद्धिरादेच् इति अग्रिमं सूत्रम् अष्टाध्याय्याः प्रथमं सूत्रं वृद्धिरादेच् अष्टाध्यायी आरभ्यते एव वृद्धिरादैच् इति सूत्रेण पदद्वयमस्ति वृद्धिः आदैच् इति किमुच्यते अनेन सूत्रेण वृद्धि इति संज्ञा विधीयते इदमपि संज्ञासूत्रम् वृद्धिसंज्ञा अनेन सूत्रेण विधीयते तस्य भवति वृद्धिसंज्ञा इति चेत् आद् ऐच् च वृद्धिसंज्ञः स्यात् इति उच्यते आ इत्युक्ते आकारः ऐच् इत्युक्ते प्रत्याहारः ए ओङ् ऐ औच् ऐ औ इति द्वयोः वर्णयोः प्रत्याहारः ऐच् इति आ ऐ औ इत्येतेषां वर्णानां वृद्धिः इति संज्ञा भवति इति सूत्रार्थः मध्ये दृश्यते कश्चन तकारः आ ऐच् किमर्थं तकारः इति चेत् तात् परः तपरः तकारात् परः यः अस्ति ऐच् वर्णः सः तत्कालस्यैव संज्ञा स्यात् इत्युक्ते ऐ इत्युक्ते केषां वर्णानां ग्रहणं भवति एतः द्वादशानां ए ओ ऐ औ इत्येते वर्णाः प्रत्येकं द्वादशप्रभेदानां ग्राहकाः ए ऐ इत्युक्ते दीर्घ ऐकारस्य षट् प्रभेदाः श्लुत ऐकारस्य षट् प्रभेदाः दृश्यन्ते किन्तु अयं यः अत्र अस्ति ऐकारः सः तपरः अपरत्वात् तत्कालस्यैव संज्ञा भवति. तत्कालः नाम अत्र दीर्घः, ऐकारस्य ह्रस्वः नास्ति, अत्र उच्चार्यमाणः दीर्घः, तस्मात् दीर्घ ऐकारस्यैव ग्रहणं भवति. एवमेव औ इत्युक्ते दीर्घ औकारस्यैव ग्रहणं भवति. कः अर्थः? दीर्घ आकारस्य, दीर्घ ऐकारस्य, दीर्घ औकारस्य च वृद्धिः इति संज्ञा व्याकरणशास्त्रे. वृद्धिः इति संज्ञा भवति दीर्घाणामेव, दीर्घ आकार ऐकार औकाराणां, कृत ऐकार औकारयोः ग्रहणं नास्ति. तस्मात् अत्र तपरत्वम् उपयुक्तम्. आत् इति तपरः, तात्परः तपरः, ऐच् इति तपरः भवति. ऐकारः औकारश्च सम उच्चार्यमाणसमकालस्य अर्थात् दीर्घस्यैव ग्राहकं भवति इति सूत्रार्थः. वृद्धिः अस्य सूत्रस्य विषये किमपि अस्ति. प्रथमं सूत्रम् इति उक्तम् अष्टाध्याय्याः आदिमं सूत्रं भवति वृद्धिरादे. सामान्यतः यदा अस्माकं शास्त्रग्रन्थान् पठामः तत्र सर्वत्र मङ्गलं विना आरम्भः न क्रियते. सर्वत्र श्लोके, शास्त्रे वा काव्ये वा, सर्वत्र मङ्गलादीनि, मङ्गलमध्यानि, मङ्गलान्तानि च शास्त्राणि प्रथन्ते इति महाभाष्ये अस्ति. शास्त्रं नाम आदावत् मङ्गलं भवेत्, मध्येऽपि भवेत्, अन्तेऽपि भवेत् इत्यादिरीत्या महाभाष्यकारैः उक्तमस्ति. किन्तु पाणिनिना मङ्गलश्लोकरीत्या किमपि न रचितम्. किन्तु वृद्धिः इति यदुक्तं, पाणिनिः सूत्रकारः, सूत्रस्य प्रथमं लक्षणं भवति अल्पाक्षरम्. अतः मङ्गलमपि अल्पाक्षरैरेव करोति. वृद्धिः इत्येव तस्य मङ्गलसूचकं पदम्. वृद्धिः इति पदेनैव सः मङ्गलं कृत्वा ग्रन्थस्यापि उपयुक्तरीत्या वृद्धिशब्दम् उपयुक्तवान् अस्ति. वृद्धिः इति संज्ञा आदैच् इति संज्ञिनः, आकार ऐकार औकाराः संज्ञिनः, वृद्धिः इति संज्ञा. यदा यदा संज्ञासूत्रं पठामः तत्र प्रश्नः उदेति, संज्ञासूत्रस्य प्रयोजनं कुत्र? यतो केवलस्य संज्ञायाः किमपि प्रयोजनं नास्ति. There is no use of a samya, a name by itself. Unless that name is used elsewhere, that name has no meaning. Without a purpose, he wouldn't have created a name. So whenever we study a samya sutra, along with it, we should also know where is this samya sutra used. So a few examples include, one is the Vriddhireci. Vriddhireci is the general sutra for Vriddhisandhi. Tava eva, tava eva. अकारादेचि परे वृद्धिः भवति. देयर ही डज नॉट से एकार ऐकार आदेश और औकार आदेश, ही सेज वृद्धि. सो इफ इट इज वृद्धि, यू हैव टू डिसाइड विच इज द वृद्धि लेटर विच यू विल यूज. सिमिलरली मृदेर वृद्धि, मृद धातोः वृद्धिः भवति. माष्टि इति रूपं साधयति. एषु स्थलेषु वृद्धि इति संज्ञायाः प्रयोजनम् अस्ति. सो वृद्धिरादेच् द तपरकरण इज हियर for L, to make sure that you will get Vriddhi Samya only for Dirgha Aikara and Dirgha Aukara and not for Plutas. Okay. Dvimam Sutram, Ashtadhyayaha Dvimam Sutram, Adeyam Gunaha. Paradvayamasya Prati, Adeyam Gunaha. Guna iti Samya Vidhiyate. Vyakarana Shastre, Gunaha Ittitta, Akara, Ekara, Aukara. एतेषां गुणः इत्युक्ते अकारः, एङ् इत्युक्ते एकारः ओकारश्च, अ ए ओ इत्येतेषां वर्णानां गुणः इति संज्ञा विधीयते. अत्रापि पाणिनिः अपरकरणं करोति. अत्रापि तकारः अस्ति अ एङ्. अत्र तकारस्य उभयथा प्रयोजनम् अस्ति. अत् इति, अत् इत्यपि तपरकरणम्, इत्यपि तपरकरणम्. अत् इत्यत्र कथं? कः परः यस्मात् सः तपरः, अयम् अकारः. कः परः यस्मात् सः अकारः तपरः, ताः परः एङ् इत्यपि तपरः. तस्मात् उच्चार्यमाणसमकालस्य अयम् अकारः ह्रस्वतया उच्चार्यते. ह्रस्व एकमात्राकारे उच्चार्यते, तस्मात् अकारेण ह्रस्व अकारस्यैव ग्रहणं भवति. एङ् इत्यत्र ए ओ इति उभावपि दीर्घौ उच्चार्येते, तस्मात् ताभ्यां दीर्घयोरेव ग्रहणम्. आहत्य कः अर्थः? ह्रस्वस्य आकारस्य दीर्घयोः एकार ओकारयोः व्याकरणशास्त्रे गुणः इति संज्ञा भवति इति सूत्रार्थः. अस्मिन् सूत्रेपि तपरकरणम् अस्ति. पाणिनि हेस् यूस् तपरकरण हियर् आल्सो. हियर् द टु सर्व्स् बोथ् पर्पसेस्. इट् इस् इट् क्वालिफैस् द प्रिसीडिङ्ग् लेटर् अण्ड् आल्सो द सक्सीडिङ्ग् लेटर्. द प्रिसीडिङ्ग् लेटर् इस् अ विच् इस् अ ह्रस्व. सो अत् मीन्स् ह्रस्वाकारस्य. Similarly, Eng is preceded by T. So, Eng is also Tapara. So, this Eng is being pronounced as Dirgha. So, Eng, T Eng means Dirgha Ekara Okara Yoho. So, putting it together, Guna is a Samya which is given for Hraswa Akara, Dirgha Ekara and Dirgha Okara. The Dirgha and Pluta forms of Akara do not get good Samya. The Pluta forms of A and O also do not get गुणसंज्ञा. सो गुण इति संज्ञा बहुधा उपयुज्यते व्याकरणशास्त्रे. उदाहरणार्थम् आद्गुणः इति गुणसंज्ञौ उपयुज्यते. रमा ईशः इत्यस्ति चेत् रमेशः. केन सूत्रेण? आद्गुणः इति सन्धिविधायकं सूत्रं. गुणसंज्ञाविधायकं सूत्रं भवति अदेङ्गुणः. गुणसन्धिः आद्गुणः इति सूत्रेण अग्रे क्रियते. एवमेव मिदेर्गुणः इत्यस्ति. मिदधातोः गुणः भवति. मृगि गुणः इति संज्ञाद्वयम् अनेन सह तपरकरणमपि ज्ञातव्यम्. अग्रे अन्याः संज्ञाः उच्यन्ते. भूवादयो धातवः. धातुः नाम कः इति प्रश्नः. भूवादयः धातवः. भू वा इत्यादयः धातुसंज्ञाः. भू इति कश्चन धातुः. वा इत्यपि कश्चन धातुः. एतादृशाः शब्दस्वरूपाः धातुसंज्ञाः भवन्ति इति सूत्रार्थः. सः अर्थः भू इति येषां ते. भू इति आरभ्य सर्वैः ज्ञातव्यम् अष्टाध्यायाम् अष्टादर्षु अपेण्डिसिस् अष्टाध्याय. द मेन् अष्टाध्याय सेल्फ़् अलाङ्ग् वित् दट् यु हाव् other appendices. One of these is the Dhatu Patha. In which Pani lists all the dhatus. There is a Gana Patha in which he declares classes of words. There is Lingana Shasana in which he defines the, he tells about lingas of different words. Sutra Patha, Dhatu Patha, Dhatana Patha, Gana Patha, Lingana Shasana and Shiksha. There is Pani Niya Shiksha in which he talks about the pronunciation of letters. So these five together are called as Kandakam Paniniyakam. The five. Also you have the Dhatu Patha. Dhatu Patha is a list of the dhatus along with meaning. The meanings were actually not by Panini. It is what is believed. The meanings were added by somebody later. But still you have the Dhatu Patha in which he lists around 2000 dhatus. Dhatus are verbs. These dhatus are the base, the root for almost all types of words which we find in Sanskrit. Barring a very few words which are the unadis, all words of Sanskrit are said to be derived from dhatu. So what is a dhatu? Bhu ityadayaha. The list of words starting from bhu are called dhatus. Another example is va. सूत्रार्थात् क्रियावाचिनः भ्वादयः धातुसंज्ञाः स्युः. भ्वादयः शब्दस्वरूपाः भूसत्तायाम् एधवृद्धौ इत्यादिरीत्या धातुपाठः यः लिखितः तस्मिन् धातुपाठे ये ये शब्दाः निर्दिष्टाः ते धातुः इति संज्ञां प्राप्नुवन्ति. कदा? क्रियावचनत्वे सति. यदा ते क्रियावाचकाः तदैव धातुसंज्ञा भवति. There are two conditions for a particle to be called a dhatu. The first condition is it should be listed in the dhatu patha. That is, it should be one among the nearly 2000 forms which have been listed by Pani as dhatu. Not only that, it should also be a word which indicates an action. When both these conditions are satisfied, that particular shabda will be called a dhatu. So why both conditions? Yeah. There is a dhatu called va. वा गतिगन्धनयोः इति धातुः वाति वातः वान्ति वायुः वाति इत्यादिरीत्या प्रयोगः अस्ति अस्मिन् वाति इति रूपे अयं क्रियावाचि अयं शब्दस्वरूपः किन्तु करोषि न वा इति विकल्पार्थकः अपि वा शब्दः अस्ति इदानीं धातुसंज्ञा वा इति धातुवाचे पठितमस्ति किन्तु सर्वेषु अर्थेषु तस्य धातुसंज्ञा नास्ति यदा क्रियावचनः भवति क्रियां वदति तदैव तस्य धातुसंज्ञा यदि स एव शब्दः अन्यस्मिन् अर्थे क्रियाभिन्नार्थे प्रयुज्यते तदा तस्य धातुसंज्ञा नास्ति वा इस् अ वर्ड् विच् इस् इन् द धातुपाठ इन् द धातुपाठ इट् डिनोट्स् अ क्रिया वा मीन्स् टु ग्रो आर् टु मूव् आर् टु the wind flows or the wind blows. That is that we use vāti. Okay? In such a case, it is an action word. For the same, athava, na, va. In such cases, you are using it in the sense of or. Okay? So, va is a dhātu only when it is a kriyāvacana. So, even for words which are in the dhātu paṭha, they will be called dhātus only when they are indicating an action. So words which are not in the dhatu paṭha, even if they indicate action, will not be dhatus. For example, there is something called hiruk, is an avyaya, which is in vardhana arthaka. Vardhana means to leave. Vardhayitva, tyaktva, ityartha. Ayam shabdaha yadyapi kriya vachanaha, kriyam varati, tathapi dhatu paṭhe hiruk ityasya priganam nasti. Tasmad ayam na dhatuhu. Dhatu has to satisfy both conditions. It has to be in the dhatu paṭha, it has to be indicating an action. If either of these is not satisfied, it will not be a dhatu. Bhuvādayaḥ dhātavaḥ. Kriyāvācinaḥ bhuvādayaḥ dhātusamyāḥ. Dhatu iti samyā tu bahutra vaityate. Sarve king pratyayaḥ, sarve krut pratyayaḥ dhātusamyāṁ āśrityaiva pravartante. Dhātoḥ iti adhikāraḥ. तस्मिन् अधिकारे प्रत्ययाः विधीयन्ते अन्यानि अपि कार्याणि सन्ति अतो धातोः धातोः कर्मणसमानकर्तृकादिच्छायां वा धातो एकाचो हलाहे क्रियासमभिहारेण धातोः इत्येव सूत्रमस्ति धातुसंज्ञा ततः निपाताः निपात इति संज्ञा अस्ति पराग्रीश्वरान् निपाताः इति अधिकारसूत्रम् अनेन सूत्रेण निपाताः इति अधिकारः आरभ्यते एतत् सूत्रमारभ्य अग्रे बहुषु सूत्रेषु प्रत्येकं सूत्रे निपाताः 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 इति अनुवर्तते कियत्पर्यन्तम् अनुवर्तते इति प्रश्ने प्राक् रीश्वरात् यावत्पर्यन्तं रीश्वर इति शब्दः नागच्छति तावत्पर्यन्तं निपाताः इत्यपि सः गच्छति इति सूत्रार्थः वस्तुतः निपाताः इत्येव अधिकारः दिस् इस् अन् अधिकारसूत्रम् इट् इस् आल्सो संज्ञासूत्र इट् इस् गिविङ्ग् द संज्ञा निपात बट् द निपातसंज्ञा इस् नाट् फार् वन् थिङ्ग् इट् इस् फार् मेनी डिफरेण्ट् थिङ्ग् विस् पाणिनि लिस्ट् इन् द कमिङ्ग् सूत्र सो इट् इस् ईट् आफ् द फालोयिङ्ग् सूत्र यु हव् टु आड् आन् निपाताः सो इट् इस् अन् अधिकारसूत्र विच् गोस् आन् फार् सम् एक्स्टेन्स् नौ Wherever there is an adhikara, there are ways of deciding how do we know where the adhikara ends, is the question. So, the general thing is commentaries. Vyakhyanasi jnanate, edavat paryantam adhikara hai te. Kadachistu paanirereva sutreva vadati. In this sutra itself, Panini himself mentions Pragrishvara. Till you meet a word called Rishvara, you have this Adhikara called Nipataha. Now this Rishvara is referenced to a sutra called Adhirishvara. This Pragrishvara Nipataha is 1456. The 56th sutra of the fourth pada of the first Adhyaya of the Adhyaya. Adhirishvara is the 97th sutra in the same pada. So for nearly 40 sutras or 41 sutras, you have this adhikara called nipata. Till this Rishvara, till you meet this Rishvara Shabda, the nipata adhikara goes on. तु पदत्रयं प्राकृतिष्प्रातनिपाताः इति इत्यधिकृत्य अधिकालसूत्रम् अधिकालसूत्राणां विशेषः स्वार्थः इत्युक्ते स्वस्य कोऽपि अर्थः न भवति अस्य सूत्रस्य कोऽपि अर्थः नास्ति अग्रिमसूत्रेषु सर्वत्र निपाताः इत्यस्य योजनं क्रियते तावदेव निपाताः इति संज्ञा अधिक्रियते अधिरीश्वरे इत्येतत् पर्यन्तम् अस्मिन् अधिकारे कानि सूत्राणि सन्ति इति उदाहरणद्वयमेव प्रदर्श्यते सौबुद्ध्याम् अस्मिन् स्थले सादयो सत्त्वे तद्वयं सादयः असत्त्वे इति छेदः चादयः चाः च आदिः येषां ते चादयः चादयः इस् अ गण दिस् इस् वेर् इन् द कौमुदी आफ् फस्ट् बीङ्ग् इन्ट्रोड्यूस् टु गण अ गण इस् अ क्लास् आफ् वर्ड्स् क्लास् आफ् सिमिलर् वर्ड्स् पुट्टिङ्ग् आल् आफ् इट्स् टुगेदर् पाणिनि गिव्स् सम् कार्य इट् इस् द लाट्स् आफ् केसस् वेर् एवर् देर् इस् वन् कार्य इट् इस् अप्लैङ्ग् टु अ सीरीस् आफ् वर्ड्स् हि पुट्स् आल् दोस् वर्ड्स् इन् टु वन् क्लास् विच् इस् काल्ड् अ गण Every gana is named after the first particle of the gana. It does not go to the effort of keeping a separate name. Every gana is called something adi. What adi? The first particle. Since this gana starts with cha, this is called chadi gana. So, he says, chadi gana, chadayaha, nama chadi gane patitaha shabdaha, nipataha iti adhikriyate, nipata samyaha sifo. ये शब्दाः चादिगणे पठिताः तेषां सर्वेषां निपाताः निपातः इति संज्ञा भवति कदा भवति यदा असत्त्वे सत्त्वं नाम द्रव्यम् अद्रव्यार्थाः द्रव्यार्थः यत्र नास्ति तत्र चादीनां निपाताः इति संज्ञा भवति इति सूत्रार्थः प्रथमं ज्ञातव्यं चादयः नाम के विच् आर् द चादीस् विच् आर् shabdas which belong to this class. So he gives all the class, the whatever words belong to each class, he lists separately as the Ganapatha. So if you look at the Ganapatha, you will find that these so many words are there in the Chadiyana. Chava, Aha, Eva, Evam. So it goes on. There are a lot of words. You can look at this Gana later. You will find that many famous avyas are belong to this Chadiyana. Like cha itself is a famous avya. Many, many avyas which we are familiar with are there in this Gana, along with many unfamiliar ones. So all these words will be called Nipatas. When he says Adravya. So what is the significance of Adravya? What is Dravya? Sattvam and Dravyam. Sattvam nama Dravyam. Kim nama Dravyam? लिङ्गसङ्ख्यान्वितं द्रव्यं यस्य लिङ्गं भवति सङ्ख्या भवति तत् द्रव्यं टु पुट् इट् वेरि प्लेन्लि द्रव्य इस् आल्मोस्ट् एनि मेटर् इस् काल्ड् अ द्रव्य तर्कशास्त्र गिव्स् अ डेफिनेशन् फार् द्रव्य पृथिव्यप्तेन वायुमाकाशकालदिगां मम नांसि न एव So there are 9 dravyas according to that shastra. But in general, a dravya is any matter. Okay? Matter is dravya. So the quality, action are two different things. There are 3 basic parameters. One is dravya, guna and kriya. Dravya is matter. Guna is any quality applying to that matter. And kriya is any action in that matter. The general case is that the guna and kriya always exist only in a dravya. Without a dravya, you cannot show either a guna or a kriya. So both guna and kriya exist within a dravya, but a dravya, matter is obviously different from guna and kriya. It's adravyartha. When these are not referring to some particular matter, in such cases, you get nipata samya for these. What do you mean by that? उदाहरणैः स्पष्टं भविष्यति तत् शुकम् इति एकम् एकं पदमस्ति अस्मिन् गणे चादिगणे शुकम् इति पठ्यते शुकम् इत्युक्ते शीघ्रम् इत्यर्थे शीघ्रं गच्छति इत्यर्थे शुकं गच्छति इत्यपि प्रयोगः अस्ति शीघ्रं शैघ्र्यं नाम न द्रव्यं शीघ्र फास्ट् स्पीड् इस् नाट् माटर् it is a quality. So this is adravyartha. When it is adravyartha, nipata samya bhavati. Nipata samyayaha kim phalam? Nipatam sarve avyayani bhavanti. Iti adre drishyate. Idanim idam nipatam. Tadeva shukam pashya. Shukaha nama pakshvisheshaha. Shuka is also called a parrot. When you are using the word shuka to mean a parrot, it is dravyartha because it is referring to a dravya, a matter. So in this case, you will not get nipata samya. Nipata samya kadabhavati adravyarthaha. Tadigane patitaha shabdaha. Yada adravyarthaha bhavanti. Dravyavasakaha na bhavanti. Tadaiva tesham nipata samya. Yadi dravyavasakaha tahi nipata samya. Atanasti. Evameva. Pashu iti ekam padama. Vikmindana. पशु इत्यस्य सम्यक् इत्यपि अर्थः अस्ति प्राणिविशेषः पशुः नाम धेनुर्वा वृषभो वा इत्यादयः पशवः पशुं नयन्ति पशुं नयन्ति इत्यर्थे निपातसंज्ञा न भवति कुतो न भवति अयम् इदानीं द्रव्यार्थः अत्र पशुः नाम कश्चन प्राणी नाम द्रव्यं तस्मात् अत्र निपातसंज्ञा नास्ति यदा पुष्टं पशु मन्यते इति क्वचित् प्रयोगः अस्ति यत् पुष्टं भवति तत् सम्यक् इति मन्यते इत्यर्थे सम्यग् इत्यर्थे निपातसंज्ञा भवति किमर्थं तत्र द्रव्यार्थः नास्ति यत्र द्रव्यार्थत्वं नास्ति तत्रैव निपातसंज्ञा असत्त्वे असत्त्वे नाम अद्रव्यार्थाः आदयः निपातसंज्ञाः स्युः
Yes, Swamiji.
Okay. No breaks.
Maybe a few breaks, but not more than 5 seconds.
Okay. Sadayo tatve ityanena nipata samya vidhiyate. Ratvishvaran nipaha ityanena nipataha iti adhikriyate. Sadayo tatve nipataha. साधयः असत्त्वे द्रव्यार्थे साधयः निपातसंज्ञाः स्युः इति सूत्रार्थः प्रादयः इति अग्रिमं सूत्रं प्रादयः एकमेव पदमस्ति प्र आदयः प्रादयः असत्त्वे साधयोसत्त्वे इत्यतः असत्त्वे इति अनुवर्तते निपाताः प्राग्नेश्वरं निपाताः इत्यनेन निपाताः इति अधिक्रियते तस्मात् अद्रव्यार्थाः साधयः तथा इति दीक्षितैः उक्तं तथा नाम निपातसंज्ञाः स्युः पूर्वसूत्रेण अद्रव्यार्थाः चादयः निपातसंज्ञाः स्युः इति उक्तम् अनेन सूत्रेण अद्रव्यार्थाः प्रादयः निपातसंज्ञाः स्युः प्रादयः प्रादिः इति पुनः कश्चन गणः यथा चादिः इति गणः आसीत् तथैव प्रादिः इत्यपि गणः ते अस्माभिः सामान्यतः उपसर्गाः इति ज्ञायन्ते ते एव शब्दरूपाः प्रादयः अग्रे लिख्यते दीक्षितैरेव प्र पर अपस्वम् अनु अव दिस् निर् दुस् दुर् नि आङ् नि अहि अपि अति सु सुत् अभि प्रति परि उप इति द्वाविंशति पदानि सन्ति एते प्रादयः प्रादयः अद्रव्यार्थाः यदा असत्त्ववाचिनः तदा निपाताः इति संज्ञा प्राप्नुवन्ति इति सूत्रार्थः निपाताः इति अधिक्रियते चादीनाम् अद्रव्यार्थानां चादीनामपि निपातसंज्ञा अस्ति अद्रव्यार्थानां प्रादीनामपि निपातसंज्ञा अस्ति अद्रव्यार्थाः प्रादयस्तः उपसर्गाः क्रियायोगे गतिश्च उभयत्र प्रादयः इति अनुवर्तते प्रादयः क्रियायोगे उपसर्गाः यदा क्रियया सह नाम धातुना क्रियावचनानि धातुसंज्ञानि भवन्ति इति इदानीमेव अधीतम् क्रियावचनः भावनः धातुसंज्ञाः तादृशैः धातुभिः क्रियावचनैः सह यदा सम्बन्धः अस्ति तदा एतेषां प्रादीना उपसर्गः इति संज्ञा दीयते प्रादी लेम्बर्स् आर् काल्ड् उपसर्ग देन् दे आर् असोसियेटेड् वित् क्रियावचन विथ् एन् आक्षन् वर्ड् whenever there is the, you have gacchati, agacchati, a is an upasarga because it is associated with a kriya. Whenever the pradis are associated with a kriya, then it is called an upasarga. Pradaya, dhatishcha, they are also called dhati. When the pradis enters individually, adravyarthaha karyaha padasanyaha siho, pradinam nipataha itasanyaha. यदा क्रियया सह सम्बन्धः अस्ति तदा प्रादीनां संज्ञाद्वयं विधीयते, उपसर्ग इति काचन संज्ञा, गतिः इति काचन संज्ञा. उभे अपि संज्ञे भवतः प्रवीण. वेन् प्रादीस् आर् असोसियेटेड् वित् क्रियावचनस् वित् आक्षन् वर्ड्स् दे गेट् टु संज्ञा. वन् इस् द उपसर्गसंज्ञा अण्ड् अदर् इस् द गतिसंज्ञा. सो दीक्षितर् गिव्स् द सूत्रार्थ टुगेदर् प्रादयः क्रियायोगे उपसर्गसंज्ञाः गतिसंज्ञाश्च स्युः इति सूत्रार्थः. उपसर्गसंज्ञा इस् यूस्ड् इन् मेनि सूत्रास् लैक् उपसर्गाद् असमासेऽपि नोपदेशस्य इट् गिव्स् एन् अक्व द न बिकम्स् न वेन् देर् इस् अ रेफा इन् उपसर्ग. उपसर्गस्य यतौ इत्यादिरीत्या बहुषु स्थलेषु उपसर्गसंज्ञायाः उपयोगः अस्ति. एवमेव गतिसंज्ञा, गतिसंज्ञायाः उपयोगः गतिकारकोपपदात् कृत् इति वेदेशप्रक्रियायां किञ्चन सूत्रमस्ति. गतिरनन्तरः इत्यस्ति, कुगतिप्रादयः इति गतिसमासः अस्ति. एवं बहुत्र गतिसंज्ञायाः अपि उपयोगः अस्ति. एते प्रादयः द्वाविंशतिप्रादयः एतेषां तिस्रः संज्ञाः भवन्ति. उपसर् निपात इति संज्ञा, उपसर्ग इति संज्ञा, गतिः इति संज्ञा च. अग्रे विभाषा, विभाषा इति काचन संज्ञा. न वेति विभाषा सूत्रं, न वा इति विभाषा. निषेधविकल्पयोः विभाषा संज्ञा स्यात्. विभाषा नाम सामान्यतः विकल्पः इत्यर्थः. निषेधस्य न इत्यस्य वा इत्यस्य च यः अर्थः, स एव अर्थः विभाषा इति संज्ञायाः. बहुत्र सूत्रेषु पाणिनिः अस्याः संज्ञायाः उपयोगं करोति. विभाषा, विभाषा श्वेः नाम श्विधातोः सम्प्रसारणं विकल्पतया भवति. विभाषा दृति, दृति सर्वनामसंज्ञा विकल्पेन भवति. अस्य सूत्रस्य विषये महान् विचारः अस्ति महाभाष्ये, किन्तु सामान्यतः विभाषा नाम विकल्पः इत्यर्थः. अस्मिन् अर्थे अन्यान्यपि पदानि उपयुज्यन्ते अस्मिन् शास्त्रे. वा इत्यस्ति, विभाषा इत्यस्ति, अन्यतरस्याम् इत्यस्ति, बहुलम् इत्यस्ति. एतानि चत्वारि पदानि विकल्पार्थकानि शास्त्रे प्रयुज्यन्ते. इन् दिस् शास्त्र टु मेन्शन् दट् अ सूत्र इस् आप्शनल्, इदर् यु केन् अप्लैड् आर् नाट्. देर् आर् अ फ्यू वर्ड्स् विच् आर् यूस्ड् बै पाणिनि. He calls them generally as vibhasha here, but it need not be vibhasha in all cases. It can be va, it can be vibhasha, it can be anyatarasyam, and it can be bakulam. So these are four words which are generally used in the sense of optional things. Okay. So naveti vibhasha, the next sutra. स्वरूपशब्दस्य अशब्दसंज्ञा. ओके, ऐ आम् नाट् ओन्लि टिल् हियर् बट् इफ् देर् आर् नो डौट् ऐ विल् मूव् आन् टु द नेक्स्ट् सूत्र. इस् देर् एनी क्वेश्चन्स् रिगार्डिङ्ग् वाट् वी डिड् टुडे? ओके, प्रश्नः अस्ति चेत् पृच्छन्तु, नो चेत् किञ्चित् अग्रे सूत्रद्वयं पठितुं शक्यते.
Let's continue.
स्वं रूपं शब्दस्य अशब्दसंज्ञा इति सूत्रम् चत्वारि पदानि सन्ति. स्वं रूपं शब्दस्य अशब्दसंज्ञा इति सूत्रम् सामान्यतः लोके कथमस्ति इत्युक्ते इदानीं गाम् आनय इत्युच्यते. गाम् आनय इत्युक्ते किम् आनीयते? कश्चन प्राणिविशेषः गौः इति यः प्राणी सः आनीयते. इदानीं गो इति शब्दः यः प्राणी अस्ति सः अर्थः. लोके अर्थस्यैव सर्वत्र प्राधान्यं. गां पश्य इत्युक्ते गोरूपपदार्थं पश्य इति अर्थः, न तु गो इति पदं पश्य इति. आल्वेज् इन् इन् लोक इन् व्यवहार अर्थस्य प्रधान. Whenever I'm saying gaam pashya, I mean to say look at the padartha, the go padartha. Go is the pada and the cow, that's still cow is the padartha. So when I say gaam pashya, I mean to say look at the padartha cow and not at the pada go. Okay. So similarly, if you have say agnihi, agnihi dahati, it means it is the padartha, the fire, the actual artha, the meaning of that word which burns. It is not the word agni which burns by itself. It is the padartha which burns. So, in all cases in loka, by any pada, we generally take the artha. Whether I am saying vanhi or agni or anala or vaishvanala, I mean the same padartha, which is fire. But when you come to Vyakarana, you find that it is a very different thing. In Vyakarana, it is Shabda which is Prathana and not the Vyakarana Shastra. Agni Bhinna, Nama Agni Iti Padam Bhinna, Vandhi Iti Padam Bhinna, Anala Iti Padam Bhinna. Padasya Iva Pradhanyam, Idam Shabda Shastra Iti Padre Vyakarana. Tasmata Asin Shastra, Shabdasya Iva Pradhanyam Asti. Agni Iti Padam Agni Iti Shabdaha. वायुः इत्युक्ते वायुः इति पदम् एव अस्माभिः स्वीक्रियते, न तु साक्षात् अग्निपदार्थः न वा वायुपदार्थः. तदेव उच्यते अनेन सूत्रेण शब्दस्य स्वं रूपं सम्ये. शब्दशास्त्रे व्याकरणशास्त्रे शब्दस्य यत् स्वरूपं भवति तस्यैव कार्यं भवति, तदेव सम्ये. नाम अग्नेर्ढक् इत्यस्ति, अग्निः अग्नेः, ढक् इति प्रत्ययः क्रियते. अग्नेः परतः धक् इति प्रत्ययः भवति इत्युक्ते किम्? अग्नि इति शब्दात् धक् इति प्रत्ययः क्रियते. चतुर्क्षात् अग्नौ धक् इति प्रत्ययः स्थाप्यते. यु केनाट् पुट् अ प्रत्यय इन् टु द फयर्. इट् इस् द अग्निशब्द विच् यु आर् यूसिङ्ग् टु डु अ प्रत्यय. सो अग्नेर्धक् मीन्स् द प्रत्यय इस् फार् द शब्द कॉल्ड् अग्नि. इट् विल् नाट् अप्लै टु वह्नि, इट् विल् नाट् अप्लै टु अनल, it will not apply to anything. As far as shabdas are concerned, the meaning does not matter. Kasyapi paryaya padasya, agni shabdasya yaha pratyaha vidhiyate, saha agni itiya anupurdi, akara, gatara, nakara, ikara rupa anupurdi, kasyaha anupurvyaha eva bhavati, natu agni padarthasya. Tasma deva, vanhi shabdasyapi saha pratyaha na bhavati, anala shabdasyapi na bhavati, tasyapi na bhavati. केवलम् अग्नि इति शब्दस्य भवति. तदेव स्वं रूपं शब्दस्य, शब्दस्य स्वं रूपं सम्यि. सम्यि नाम यस्य सम्या विधीयते अथवा यस्य कार्यं क्रियते तस्य सम्यि. शब्दस्य स्वरूपमेव सम्यि भवति, अर्थस्य प्राधान्यं नास्ति इति प्रथमः भागः सूत्रस्य. अशब्दसंज्ञा इत्युच्यते. शब्दसंज्ञा नाम सा शब्दशास्त्रे नाम व्याकरणशास्त्रे याः संज्ञाः विहिताः ताः शब्दसंज्ञाः इति विधीयन्ते. तासां विषये का गतिः? इदानीं पूर्वमेव उक्तं वृद्धिरेचि इति अस्ति. आदेचि परे वर्णात् एचि परे तव एव इत्यस्ति. अकारात् एकारे परे वृद्धिः भवति. इत्युक्ते किं? वृद्धिः इति पदं भवति वा? वृद्धिः इति सूत्रस्य यतः वृद्धिः इति शब्दस्य यः अर्थः स भवति वा? There are two opposite cases you should see. The general case is where you have Agni, which is the Pada, and Fire, which is the Padartha. similarly you have vriddhi, which is a pada, and padartha. In vyakarana, the padartha of vriddhi is a, I and au. Okay. So there are two cases. When you are saying something for agni, you do it for the shabda agni. You do not take into consideration the meaning of fire. But when you are using vriddhi, the samya vriddhi, you do not put the shabda vriddhi. If you have tava eva, you do not say tava vriddhi va. You take the meaning of vriddhi, which is a, e, I, au. You select one of it. You select I and say tava eva. So there are two opposing cases. So we say swam rupam shabdasya. In all cases, generally in vyakarana, it is the swarupa of the shabda which gets any karya, except ashabda samya. Shabda samya yaha vishaye na. Ya shabda shastriya samya bhavati vriddhihi gunaha iti. प्राधान्यम् शब्दशास्त्रीय संज्ञानां विषये अर्थस्य प्राधान्यम् अन्यत्र सर्वत्र शब्दस्य प्राधान्यम् स्वं रूपं शब्दस्य अशब्दसंज्ञा शब्दस्य स्वं रूपं सन्नि शब्दशास्त्रे या संज्ञा तां विना एक्सेप्ट् इन् केसेस् दट् इट् इस् अ व्याकरणशास्त्रीयसंज्ञा इफ् इट् इस् अ शास्त्रीयसंज्ञा इट् इस् द अर्थ विच् इस् इम्पार्टेण्ट् If it is any other shabda, it is the shabda which is important. That is what this sutra says. Swam rupam shabdasya ashabda samya. Okay? I think this is enough for today. Any questions you can ask? No questions? Okay. I think we'll finish the Samya Prakarana next class. And start the Paribhasha Prakarana. There are only 8 more sutras in the Samya Prakarana. The 4 of them are very, very short sutras. So basically we have 1 or 2 more sutras which require a bit of explanation. After that, we'll be moving on to the Paribhasha Prakarana. So, the next class is on Monday. Monday night, 8 o'clock. If you have any doubts, please mail me. Or you can ask for them. अधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं बुधरुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् मुनित्रयं नमस्कृत्य चतुर्थीश्वरि भाव्य च वैयाकरणसिद्धान्तकौमुदीयं विगच्छते